कृपांकुरु जगन्मातरमामेवं हत तेजसं गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखितं ज्ञानं देहि स्मृतिं देहि विद्यां देहि देवते प्रतिष्ठां कवितां देहि शाक्तं शिष्य प्रबोधिकं ग्रन्थनिर्मिति शक्तिं च सच्छिष्यं सुप्रतिष्ठितं प्रतिभां सत्सभायां च विचारक्षमतां शुभां लुप्तां सर्वां दैव वशान्नवं कुरु पुनः पुनः यथाङ्कुरं जनयति भगवान् योग मायया ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी सर्वविद्याधिदेवी या तस्यैवान्यै नमो नमः यया विना जगत् सर्वं शश्वत् जीवन् चंदन कुंदेन्दु कुमुदाम्बोज सन्निभा वर्णादि देवी या तस्यै चाक्षराये नमो नमः विसर्ग बिंदु मात्राणां यदधिष्ठानमेव च इत्थं त्वं गीयसे सद्भिर्भारते नमो नमः यया विनात्र संख्या कृत संख्यां कर्तुं न शक्नुते काल संख्या स्वरूपा या तस्यै श्रीकृष्ण ईश्वर उवाच सचतम स्तौ हि वाणीमिति प्रजापते स चतुष्टावतां ब्रह्माचार्यया परमात्मनः चकार तत्प्रसादेन तदा सिद्धान्तम् उत्तमम् यदा प्रणनतं पप्रच्छ ज्ञानमेको वसुन्धरा बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुम् अक्षमः तदा त्वां च सन्त्रस्तकश्यपाज्ञया ततश्चकार सिद्धान्तं निर्मलं ब्रह्मभञ्जनम् व्यास पुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा मौनीभूतः स संस्मार त्वामे जगदम्बिकां तदा चकार सिद्धान्तं त्वत्वरेण मुनीश्वरः स प्राप निर्मलं ज्ञानं प्रमा व्यासः कृष्णकलोद्भवः त्वां शिशेवे च दध्योतं शतवर्षवर्च पुष्करे तदत्तत्तो वरं प्राप्य स कविन्दो बभूवः तदा वेदविभागं च पुराणानि चकारः यदा महेन्द्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवं क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं दधौ विभु शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिं तिथ्यं वर्षसहस्रं च सकों वद्यल् च पुष्करो वेदान् दत्तो वरं त्वं गदितं वर्षसहस्रकम् उवाच शब्दशास्त्रं च पदार्थं च सुमिश्रम् प्रवर्तन्ते सुरेश्वरि मुनि संस्फुता पोषिका च मुनीं ब्रह्मनुमानवै दैत्यैश्च दैत्यं महाविष्णुशिवादपि ध्वनिभूतः सहसा स्वपञ्चवन्तश्च पुरमुखः यासौ तुप्तिमहं स्तोमिकामेका सेनोणानवः विद्वन्ताया कुवर्चश्च वक्किरप्रान्तबन्दरः वैपुण्य
शवीकं च यः पति सपन्दि पश्चमी धावे सुकविश्च प्लवेत्तवु.